प्रस्थानकालोचितचारुवेशः सस्वर्गिवर्गैरनुगम्यमानः ततः कुमारशिरसानतेन त्रैलोक्यभर्तुः प्रणनामपादौ
प्रस्थानेति ततः अनन्तरम् स कुमारः कार्तिकेयः प्रस्थानकाले उचितः योग्यः चारुश्च वेषः यस्य तथा स्वर्गिवर्गैः इन्द्रादिदेवगणैः अनुगम्यमानः सन् न तेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे उपसर्गादसमासेऽपि इति णत्वम्
जहीन्द्रशत्रुम् समरे मरेश पदम् स्थिरत्वम् नय वीरवत्स इत्याशिषा तम् प्रणमन्तमीशः मूर्धन्युपाघ्राय मुदाभ्यनन्दत्
जहीति प्रणमन्तम् नमस्कुर्वन्तम् तम् कुमारम् ईशः हरः मुदा प्रीत्या मूर्धनि उपाघ्राय गन्धम् उपादाय हे वीर हे वत्स समरे युधि इन्द्रशत्रुम् तारकम् जहि मारय अथ अमरेशपदम् इन्द्रपदम् स्वर्गम् स्थिरत्वम् स्थैर्यम् नय प्रापय उभयत्रापि आशिषि लोट् इत्येवम् भूतया आशिष आशीर्वादेन अभ्यनन्दत् अस्तौषीत्
प्रह्वी भवन् नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगम् स्वमातुः तस्याः प्रमोदाश्रुपयः प्रवृष्टिः तस्याभवद्वीरवराभिषेकः
प्रह्वीति स कुमारः प्रह्वीभवन् नम्रीभवन् सन् नम्रतरेण मूर्ध्ना अत्र प्रह्वीभवन्नित्यनेनैव मूर्ध्नः नम्रत्वे सिद्धे पुनः विशेषणोपादानम् सामान्यतः अन्येषाम् अङ्गानाम् नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् पुनः उपादानेन तरग्रहणलिङ्गाच्च स्वमातुः अङ्घ्रियुगम् चरणद्वन्द्वम् नमश्चकार तस्याः पार्वत्याः सम्बन्धीनि यानि प्रमोदाश्रुपयांसि तेषाम् प्रवृष्टिः वर्षणम् तस्य कुमारस्य वीरेषु वरस्य श्रेयसः सेनापतेरित्यर्थः तस्य अभिषेक इव यः अभिषेकः सः अभवत् तस्य यादृगभिषेको भवति सः मात्रश्रुपयो वृष्टिः आशिरश्चरणनखपर्यन्तम् प्लावयन्त्यभूदिति भावः
तमङ्कमारोप्यसुता हि माद्रेः आश्लिष्य गाढम् सुतवत्सला सा शिरस्युपाघ्राय जगादशत्रुम् जित्वा कृतार्थी कुरु वीरसूम् माम्
तमिति सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तम् पुत्रम् अस्य ल्यबन्तत्रयेण सम्बन्धो विधेयः अङ्कम् उत्सङ्गम् अङ्को रूपकभेदाङ्गचिह्ने रेखाजिभूषणे रूपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कम् पापदुःखयोः इति मेदिनी आरोप्य संस्थाप्य तथा गाढ़ं दृढ़ं यथा तथा प्रगाढ़ कुच्छ्रदृढ़योः इति मेदिनी प्रेति त्रित्वसंघातनिवेशनायैव एवं विना तदलाभात् आश्लिष्य आलिंग्य तथा शिरसि उपाघ्राय च हे वत्स त्वं शत्रुं तारकं जित्वा वीरं सूते सा वीरसूः तथोक्तां मां कृतार्थीकुरु इति जगाद एवं विधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यप्रसृतिशीलेन यशसा धवलीकृतं सत् एष यदीयः पुत्रः सा कृतार्थैव इति वर्णयिष्यतीत्यतः मत्कृतार्थत्वं सिद्धमेवेति भावः
उद्दामदैत्येष विपत्तिहेतुः श्रद्धालुचेता समरोत्सवस्य आपृच्छ्य भक्त्या गिरिजा गिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः
उद्दामेति ततः अनन्तरम् उद्दामः उद्भटः यः दैत्येषः तारकः तस्य विपत्तिः मृत्युः तस्याः हेतुः कारणम् तत्कर्ता इत्यर्थः तथा समरोत्सवस्य संग्रामरूपस्य उत्सवस्य मह उद्धव उत्सवः इत्यमरः इयम् कर्मणि षष्ठी सम्बन्धमात्रविवक्षितत्वात् इह षष्ठ्यन्तस्य वृत्तिगतेनापि श्रद्धाशब्देन नित्यसम्बन्धवशात् सम्बन्धम् कृत्वा कृद्योगलक्षणा षष्ठी समर्थनीया केचित्तु समरोत्सवे सह इति विषयलक्षणसप्तम्यन्तत्वम् अङ्गीकृत्य पठन्ति तत्रापि समासवृत्तिगतस्य श्रद्धालुशब्दस्य सम्बन्धः दुर्घट इत्यलम् श्रद्धालुः भक्तिशीलम् चेतः यस्य संग्राम श्रद्धाधायक इत्यर्थः एवम्भूतः कुमारः भक्त्या भक्तिपूर्वकम् गिरिजागिरीशौ पितरौ आपृच्छ्य मया गम्यत इत्युक्त्वा इत्यर्थः दिवम् अभि प्रतस्थे चचाल समवप्रविभ्य इत्यात्मने पदम्
देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि प्रदक्षिणीकृत्य च नाकनाथ पूर्वाः समस्तास्तमथानुजग्मुः
देवमिति ततः अनन्तरम् नाकनाथपूर्वाः इन्द्रप्रमुखाः समस्ताः त्रिदिवौकसः देवाः अपि पूर्वोक्तकुमारप्रस्थानसमुच्चायकः अपि शब्दः अपि सम्भावना प्रश्नाशङ्कागर्हासमुच्चये इति विश्वः महेशं देवं गिरिजां देवीं च प्रणम्य अथ प्रदक्षिणीकृत्य प्रदक्षिणौ परिक्रमणवशात् सव्यभागस्थौ कृत्वा इत्यर्थः ऊर्यादिच्युडाशश्च इति गतिसंज्ञकतया कुगतिप्रादयः इति समासत्वात् समासे अनैपूर्वे इति त्वो ल्यबादेशः तम् कुमारम् अनु पश्चात् जग्मुः इत्यर्थः
अथ व्रजद्भिस्त्रिदशैरशेषैः स्फुरत्प्रभासुरमण्डलैस्तैः नभो बभासे परितो विकीर्णम् दिवापि नक्षत्रगणैरिवोग्रैः
अथेति अथ अनन्तरं व्रजद्भिः गच्छद्भिः अत एव स्फुरत् प्रसरत् प्रभायाः कान्त्याः सम्बन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषां चक्रवालं तु मण्डलं इत्यमरः तैः अशेषैः सम्पूर्णैः त्रिदशैः देवैः विकीर्णं व्याप्तं नभः अन्तरिक्षं दिवापि दिनेपि उग्रैः भासुरैः नक्षत्रगणैः विकीर्णमिव बभासे भासुरत्वरूपसाधारणधर्मेण त्रिदशविकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणात् उत्प्रेक्षालङ्कारः ननु उग्रशूद्रासुते क्षुद्रात् रुद्रे पुंसि त्रिषूत्कटे इति कोशोक्त्या उत्कटवाचिनोऽपि उग्रशब्दस्य कथं भासुरवाचकता इति चेत् सत्यम् अत्र औत्कट्यं केनचिद्धर्मेण विवक्षितं न तु तेजसैव कान्त्या तापेन वा सौन्दर्यादिना वा उत्कटः अधिकः इत्यर्थप्रणयनात् प्रकृते समाधेयम्
रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः नक्षत्रताराग्रहमण्डलानाम् इव त्रियामारमणो नभोऽन्ते
रराजेति नभोऽन्ते अन्तरिक्षमध्ये व्रजतां गच्छतां तेषां सुराणां मध्ये कुमारः कार्तिकेयः अग्रेपि नभोन्त इत्यस्य सम्बन्धः कार्यः नक्षत्राणि अश्विन्यादीनि ताराः सप्तविंशतिव्यतिरिक्ताः ग्रहाः सूर्यादयो नव तेषां मण्डलानां गोलानां मध्ये त्रियामारमणः चन्द्रः इव रराज यतः अधिककान्त्या कान्तः मनोहरः नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभे इत्यर्थः पूर्णोपमालङ्कारः
गिरीशगौरीतनयेन सार्धम् पुलोमपुत्री दयितादयस्ते उत्तीर्य नक्षत्रपथम् मुहूर्तात् प्रपेदिरे लोकमथात्मनीनम्
गिरीशेति अथ पुलोमपुत्री शची तस्याः दयितः इन्द्रः सः आदिः येषाम् तथा भूताः ते देवाः गिरीशगौरीतनयेन ननु गिरीशगौर्योः एकतरेण सिद्धिरिति चेत् सत्यम् उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थम् उभयोः ग्रहणमिति समाधातव्यम् सार्धम् मुहूर्तात् क्षणमात्रेणैव नक्षत्रपथम् आकाशम् उत्तीर्य उल्लङ्घ्य आत्मनीनम् आत्मने हितम् तस्मै हितम् इत्यधिकारस्थेन आत्मन्विश्वजन इत्यादिना खः तथाभूतम् लोकम् स्वर्गम् प्रपेदिरे प्रापुः लोकस्तु भुवने जने इत्यमरः
ते स्वर्गलोकम् चिरकालदृष्टम् महासुरत्रासवशं वदत्वात् सद्यः प्रवेष्टुं न विशेहिरे तत् क्षणं व्यलम्बन्त सुराः समग्राः
त इति ते समग्राः सुराः महासुरात् तारकात् यः त्रासः भयं तस्य वशंवदत्वात् अधीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं तत्स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विशेहिरे न शेकुः किन्तु क्षणं व्यलम्बन्त कालं चिक्षुपुरित्यर्थः अन्योपि समये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति किन्तु विलम्बते तद्वदिति भावः
पुरो भवत्वं न पुरो भवामि नाहं पुरोगोऽस्मि पुरःसरस्त्वम् इत्थं सुरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः
पुर इति तत्क्षणं कालाध्वनोः इति द्वितीया प्रवेशसमये इत्यर्थः भीताः अतः तारकावस्थानशङ्कया सभयाः सुराः स्वर्गं प्रवेष्टुं त्वं पुरः अग्रे भव अहं पुरो न भवामि किन्तु त्वमेव भव अहं पुरोगः नास्मि न भवामि त्वं पुरःसरो भव इत्थम् एवम्भूतम् कलहं विग्रहं वितेनुः चक्रुरित्यर्थः अस्मीति अहमर्थकम् अव्ययम् सर्वेषाम् त्रिधाभूततया न कोऽपि अन्तः प्रवेष्टुम् शशाक किन्तु तत्रैव कलहायमानाः तस्थुरिति भावः
सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वसकातरान्ताम्
सुरालयेति सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकम् आनन्दः तेन निमित्तेन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषाम् तथा भूताः ते देवाः द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्ताम् भीतप्रान्ताम् भयचिह्नतरलत्वादियुताम् इत्यर्थः तथाभूताम् दृष्टिम् नेत्रम् मुदा प्रीत्या प्रसादेनेति यावत् उपलक्षिते कुमारस्य मुखारविन्दे वदनकमले दधुः दुर्घटप्रवेशोपायोपदेशापेक्षया इति भावः कुमारः बालोऽपि सन् न भीत इति मुदेति विशेषणेन व्यज्यते
सहेलहासच्छुरिताननेन्दुः ततः कुमारः पुरतो भविष्णुः स तारकापातमपेक्षमाणः रणप्रवीरो हि सुरानवोचत्
सहेलेति ततः दृष्टिपातानन्तरम् रणे प्रकृष्टम् वीरः अत एव तारकस्य आपातम् युद्धार्थम् आगमनम् अपेक्षते सः अपेक्षमाणः प्रतीच्छन् इत्यर्थः अत एव पुरतः अग्रतः भविष्णुः स कुमारः कार्तिकेयः सहेलः सक्रीडः यः हासः तेन छुरिताननेन्दुः मिश्रितमुखचन्द्रस्सन् किञ्चित् विहस्येत्यर्थः हि निश्चितम् सुरान् अवोचत् जगाद
भीत्यालमद्य त्रिदिवौकसोमी स्वर्गं भवन्तः प्रविशन्तु सद्यः अत्रैव मे दृक्पथमेतु शत्रुः महासुरो वः खलु दृष्टपूर्वः
भीत्येति भो त्रिदिवौकसः देवाः अद्य सम्प्रति भीत्या भयेन अलम् नभेतव्यमित्यर्थः किन्तु अमी भवन्तः सद्यः सहसैव स्वर्गं प्रविशन्तु स्वर्गप्रवेशे भयहेतुकः विलम्बः न विधेयः इति तात्पर्यम् सद्यः सपदि तत्क्षणमित्यर्थः अथ रोषात् आह पूर्वं दृष्टो दृष्टपूर्वः राजदन्तादिषु इति प्राक्प्रयोगार्हस्य पूर्वशब्दस्य परःप्रयोगः सम्भवानुरोधात् भवद्भिः इति लभ्यते ननु व इत्यनेनैव सिद्धिरिति चेत् न नलोक इति षष्ठीनिषेधात् तथा वह युष्माकं शत्रुः द्वेष्टा महासुरः तारकः अत्रैव स्वर्गे एव मे मम दृक्पथं दृग्गोचरत्वम् एतु प्राप्नोतु दृक्पथमिति ऋक्पूरब्धूः इति समासान्तः अप्रत्ययः
स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलम् वल्गति यस्य चण्डम् इहैव तच्छोणितपानकेलिम् अह्नाय कुर्वन्तु शराममैते
स्वर्लोकेति स्वर्लोकस्य लक्ष्म्याः कचाः केशाः तेषाम् कर्षणाय लक्ष्मीकेशानाम् हरणम् कर्तुमित्यर्थः तुमर्थात् इति चतुर्थी चण्डम् प्रचण्डम् यस्य तारकस्य दोर्मण्डलम् भुजमण्डलम् वल्गति चलति तस्य तारकस्य यच्छोणितम् रुधिरम् तस्य पानम् तदेव केलिः क्रीडा ताम् कर्मभूताम् एते मम शराः अह्नाय झटिति द्राग्झटित्यञ्जसाह्नाय इत्यमरः इहैव कुर्वन्तु तम् विनाशयन्त्वित्यर्थः
शक्तिर्ममासौ अहत प्रचारा प्रभावसारा सुमहः प्रसारा स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदं वः
शक्तिरिति अहतप्रचारा अविघ्नितगतिः तथा प्रभावः सामर्थ्यम् स एव सारः यस्याः सुतराम् महसः तेजसः प्रसारः मण्डलम् यस्याः अतितेजस्विनीत्यर्थः स्वर्लोकलक्ष्म्याः या विपदा तस्याः अवहा सुखदेत्यर्थः तथा अरेः प्रतिकूलस्य शिरः शीर्षम् हरन्ती असौ मम शक्तिः आयुधम् वह युष्माकम् मुदम् प्रीतिम् दिशतात् दत्तात् आशिषि लोट।